नित्यदुःखिताः ईर्ष्यघृणेन सन्तुष्टः क्रोधनो नित्यशङ्कितः परभाग्योपजीवी च षडेते नित्यदुःखिताः आर्यशीलः सत्पुरुषः न स्वे सुखे वैकुरुते प्रहर्षन् नान्यस्य दुःखे भवति प्रहृष्टः दत्त्वा न पश्चात् कुरुते नु तापं सकथ्यते सत्पुरुषार्थशीलः न विरोधः कदाचन संभोजनं संकथनं संप्रीतिश्च परस्परं ज्ञातिभिः सह कार्याणि न विरोधः कदाचन अतिथिसत्कारः पीठं दत्त्वा साधवेभ्यागताय आनीयापः परिनिर्णिज्य पादौ सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थान् ततो दद्यान्नमवेक्ष धीरः शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति न तस्य जीवितेनार्थो न धनेन न बन्धुभिः मर्यादापालकः वरः दुष्कुलीनः कुलीनो वा मर्यादायो न लङ्घ्येत् धर्मापेक्षी मृदुर्ह्रीमान् सकुलीनः शतात्वरः कुलं वृत्तेन रक्ष्यते सत्येन रक्ष्यते धर्मो विद्यायोगेन रक्ष्यते मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते सतां लक्षणं सदाचारः अकीर्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणं असाधूनां शीलम् अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः शीलमेतदसाधूनामभ्रं पारिप्लवं यथा कुलपरीक्षा परिच्छेदेन क्षेत्रेण वेश्मना परिचर्यया परीक्षेतकुलं राजन् भोजनाच्छादनेन च